इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। आदौ मुख्यवार्ताः। वित्तमन्त्री निर्मला सीतारामन्वर्या उक्तवती यत् विगत दशवर्षेष् प्रशासनेन पारदर्शकरूपेण कराधार परिवर्तनानि कृतानि। क्रीडामन्त्री मनसुख माण्डविया अवदत् यत् भारतीय ओलम्पिक संघः विश्व मल्लयुद्ध संघस्य समक्षम् पेरिस ओलम्पिक क्रीडायां मल्लयुद्धे विनेश फोगाट इत्यस्याः अयोग्यतायाः विरुद्धं विरोध प्रत्यावेदनम् अकरोत्। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य अपराह्णे द्विदिवसीय यात्रार्थं न्यूजीलैंड देशस्य आकलैंड नगरं गतवती। बांग्लादेशे शीर्षस्तरीय सेनायाः महत्तरं परिवर्तनं कृत्वा नूतन अधिकारिणः देशस्य आरक्षिबलस्य पुनर्घटनं कृतवन्तः। नेपालदेशे बांगलुंग गुम्ली क्षेत्रयोः जलप्लावैः भूस्खलनेभ्यश्च द्वादश जनाः मृताः। अपि च भारतीय ऋतुविज्ञान विभागेन अनुमानितं यत् आगामिषु चतुर्दिवसेषु हिमाचलप्रदेशे उत्तराखण्डे च भूरिशः वृष्टिः भविष्यति। अथ वार्ताः विस्तरेण। अद्य लोकसभायाम् ऐषमः वित्त विधेयकस्य चर्चायां वित्तमन्त्री निर्मला सीतारामनः प्रस्थापित प्रश्नस्य उत्तरं यच्छन्ती उक्तवती यत् विगत दशवर्षेष् प्रशासनेन पारदर्शक रूपेण कराधान परिवर्तनानि कृतानि। क्रीडामन्त्री मनसुख माण्डविया अवदत् यत् भारतीय ओलम्पिक संघः विश्व मल्लयुद्ध संघस्य समक्षं पेरिस ओलम्पिक क्रीडायां मल्लयुद्धे विनेश फोगाट इत्यस्याः अयोग्यतायाः विरुद्धं विरोध प्रत्यावेदनम् अकरोत्। डॉ माण्डविया अद्य लोकसभायाम् अवदत् यत् केन्द्रं विनेश इत्यस्यै सर्वं साहाय्यं प्रददाति। सः उक्तवान् यत् अस्मिन् विषये प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना भारतीय ओलम्पिक संघस्य अध्यक्षया पीटी उषा इत्यनया सह वार्तालापः कृतः। डॉ माण्डविया अवदत् यत् अस्मिन् विषये सर्वाः सम्भावनाः अन्वेष्टुं भारतीय ओलम्पिक संघः आदिष्टः वर्तते। क्रीडामन्त्री अवदत् यत् विनेश फोगाट इत्येषा 50 किलोग्राम भारवर्गे क्रीडति स्म। तस्याः भारः विहितसीमायाः अपेक्षया 100 ग्राम मितः एव अधिकः जातः। प्रधानमन्त्री श्रीनरेन्द्रमोदी विनेश फोगाट इत्यस्याः कृते सान्त्वनाम् अयच्छत्। सामाजिक संजालीय सन्देशे प्रधानमन्त्री मोदी उक्तवान् यत् एषा दुःखदायिका वार्ता हृदयविद्राविका वर्तते। सः अवदत् यत् मल्लयुद्धे फोगाट तादृशी एका विजेत्री अस्ति या भारतस्य गौरवः अथ प्रत्येकस्य भारतीयस्य कृते प्रेरणादायिका अपि वर्तते। अवधेयं यत् इतः पूर्वं पेरिस ओलम्पिक क्रीडायां भारतस्य दौर्भाग्यपूर्ण घटनानुक्रमे मल्लयोद्धी विनेश फोगाट इत्येषा 50 किलोग्राम फ्रीस्टाइल इति मल्लयुद्धस्य अन्तिमस्पर्धायाः कृते कतिपय ग्राममितात् अधिक भारस्य कारणात् अन्तिमचक्रे अयोग्या इति घोषिता आसीत्। भारतीय ओलम्पिक संघः एकस्मिन् वक्तव्ये अवदत् यत् रात्रौ दलस्य प्रयत्नेन अपि अद्य प्रातः काले फोगाट इत्यस्याः भारः 50 किलोग्रामतः अधिकः आसीत्। पूर्वं विनेश फोगाट इत्येषा विश्वस्य प्रथमस्थाने स्थितां टोक्यो 2020 वर्षस्य विजेत्रीं जापान देशस्य यू सुसाकी इत्येनां च पराजित्य प्रागुपान्त्यचक्रं प्रविष्टवती आसीत्। पश्चात् प्रागुपान्त्यचक्रे इयं विनेशः युक्रेन देशस्य ओक्साना लिवाच इत्येनं 7-5 अंकैः पराजित्य उपान्त्यचक्रं प्रविष्टवती। उपान्त्यचक्रे फोगाट क्यूबा देशस्य युस्नेलिस गुजमन लोपेज इत्येषां पराजित्य ओलम्पिक क्रीडायाः अन्तिमचक्रे प्रविश्य इतिहासं रचितवती आसीत्। राष्ट्रपतिः द्रौपदी मुर्मुः गवर्नर जनरल डेम सिंडी किरो इत्यस्याः निमन्त्रण पुरस्सरम् अद्य अपराह्णे द्विदिवसीय यात्रार्थं न्यूजीलैंड देशस्य आकलैंड नगरम् आगतवती। सा गवर्नर जनरल डेम सिंडी किरो इत्यनया सह प्रधानमन्त्रिणा क्रिस्टोफर लक्सन इत्यनेन सह द्विपक्षीय समागमं करिष्यति। राष्ट्रपतिः वेलिंगटन नगरे अन्ताराष्ट्रिय शिक्षा सम्मेलनम् अपि सम्बोधयिष्यति। यत्र भारतं विशिष्टातिथिरूपेण वर्तते। सा आकलैंड नगरे सामुदायिक स्वागत समारोहे भारतीय प्रवासी भारत मित्रे सह अपि संवादं करिष्यति। एषा यात्रा बहुनाम क्षेत्रेषु वर्धमान संबंधानां कृते अधिकं गतिं दास्यति इत्यपेक्षा वर्तते। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। बांग्लादेशे शीर्षस्तरीय सेनायाः महत्तरं परिवर्तनं कृत्वा नूतन अधिकारिणः देशस्य आरक्षिबलस्य पुनर्घटनं कृतवन्तः। नूतन शासनेन रैपिड एक्शन बटालियन इत्यस्य महानिदेशक रूपेण कार्यं कृतस्य अपर आरक्षी महानिरीक्षकस्य मोहम्मद हारून अर रशीदस्य स्थाने एकेएम शाहिदुर रहमान इत्यमुं नूतन महानिदेशक रूपेण स्थापितम्। अद्य राष्ट्रं प्रतिष्ठित कविं लेखकं महद्दार्शनिकं समाजपरिष्कारकं शिक्षाविदञ्च रवीन्द्रनाथ ठागोरवर्यं तस्य पुण्यतिथौ सश्रद्धं स्मरति। नोबेलाख्य पुरस्कार विजेतुः राष्ट्रगानस्य रचयितुश्च स्मरणे गृहमन्त्रिणा अमितशाहेन प्रोक्तं यत् गुरुदेवः न केवलं स्वकृतिभिः आत्मसंस्कृतेः परम्परायाः च भारतस्य जागरूकतायाः दिशि समाजम् उत्प्रेरितवान्, अपितु देशवासिषु आत्मसम्मानस्य भावनायाः संसारेण स्वतन्त्रतासंघर्षाय एकां नूतनाम् ऊर्जामपि सञ्चारितवान्। श्रीशाहेन उक्तं यत् विश्वभारती विश्वविद्यालयस्य स्थापनां कृत्वा गुरुदेवेन आसंसारं भारतीयदर्शनस्य दिग्दर्शनं कारितम्। श्रीशाहेन उक्तं यत् गुरुदेवस्य विचारचाकचिक्येन संसारः अनन्तकालाय प्रकाशितो भविष्यति। कृष्णांगार खनन मंत्री जी किशन रेड्डी खाद्य वितरण मंत्री प्रह्लाद जोशी इत्येतावपि गुरुदेवाय श्रद्धासुमनानि समर्पितवन्तौ। रवीन्द्रनाथ ठागोरः साहित्य संगीत कलानां च क्षेत्रेष्वपि सुविख्यातः आसीत्। तेन राष्ट्रगानं निर्मितं, स्वातन्त्र्य संघर्षे च भागो भजितः। दिल्लीनगरस्य प्रशिक्षणकेन्द्रस्य जलप्लाविते भूगृहे जलमग्नानां त्रयाणां भारतीय प्रशासनिक सेवाकांक्षिणां मृत्योः अन्वेषणम् अधुना सीबीआई इति केन्द्रीय अन्वेषण विभागेन क्रियते। पूर्वं दिल्ली आरक्षिविभागः अस्य विषयस्य अन्वेषणं कुर्वन् आसीत्। अद्य राष्ट्रे दशमः हतकरघ इति हस्तशिल्प दिवसः समाचर्यते। उपराष्ट्रपतिः जगदीप धनकड़ः अवसरेऽस्मिन् विज्ञानभवने समायोज्यमाने कार्यक्रमे भागम् अभजत्। तेनोक्तं यत् भारतं निकटभविष्ये विश्व आर्थिकदृष्ट्या पञ्चमतः तृतीयस्थानं प्रति समागमिष्यति। अवसरेऽस्मिन् प्रधानमन्त्री नरेन्द्र मोदी देशवासिभ्यः शुभकामनाः अयच्छत्। सामाजिक प्रसार तन्त्रजाले प्रसारिते एकस्मिन् सन्देशे प्रधानमन्त्रिणा उक्तं यत् आराष्ट्रं हस्तशिल्पस्य समृद्धन्यासे जीवन्त परम्परायाञ्च गर्वानुभूतिं करोति। तेन राष्ट्रस्य कलाधर्मिणां प्रयासाः च प्रशंसिताः। वोकल फॉर लोकल इति क्षेत्रीय उत्पादनं प्रति स्वकीया प्रतिबद्धतापि आम्रेडिता। नेपालदेशे वर्षाधिक्यात् बागलुंग गुंगली क्षेत्रयोः जलप्लावैः भूस्खलनेभ्यश्च द्वादश जनाः मृताः। भारतीय ऋतुविज्ञान विभागेन अनुमानितं यत् आगामिषु चतुर्दिवसेषु हिमाचलप्रदेशे उत्तराखण्डे च भूरिशः वृष्टिः भविष्यति। क्रीडावार्तासु भारत श्रीलंकयोर्मध्ये क्रीड्यमाने तृतीये अन्तिमे च एकदिवसीय क्रिकेट क्रीडा संघर्षे प्रथमतः क्रीडता श्रीलंका दलेन सप्त क्रीडकानां हानौ अष्टचत्वारिंशत् अधिक द्विशतं धावनांकाः समार्जिताः। विजयं प्राप्तुं भारतदलं अधुना क्रीडति। इतः पूर्वं प्रथमा क्रीडा समानपरिणामा जाता, द्वितीया च श्रीलंका दलेन विजिता आसीत्।